एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभायाः उपवेशे प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य विरोधी महाभियोग प्रस्तावः प्रस्तुतो वर्तते। प्रतिनिधि सभायाः गतदिवसीयोपवेशे नेकपा माओवादी केन्द्रस्य प्रमुख सचेतक पदीयेन देवप्रसाद गुरूङ इत्यनेन प्रस्तुतं महाभियोग प्रस्तावम् आदृत्य चैत्र मासस्य द्वितीय दिवसे उपवेक्ष्यमाणे उपवेशे विमर्शनम् भविता। प्रधान न्यायाधीशस्य जबरा इत्यस्य विरूद्धे महाभियोग प्रस्तावम् प्रस्तुवता नेकपा केन्द्रस्य प्रमुख सचेतक पदीयेन गुरूङ इत्यनेन संविधान विधि न्यायिक मूल्य मान्यतानां विरुद्धे कार्यं कृतम् न्यायिका चरणस्य कार्यक्षमतायाश्च अभावो दृष्टश्चेति एकविंशति सूत्रीयः आधारः प्रस्तुतोऽस्ति। पञ्चनवतेः सांसदानां समर्थनेन सांसदैः देवप्रसाद गुरूङ, पुष्पा भूषालः, जीवन रामश्रेष्ठः इत्येतैः प्रधान न्यायाधीशस्य जबरा इत्यस्य विरुद्धे अस्यैव फाल्गुनस्य प्रथमे दिवसे संसदि महाभियोग प्रस्ताव पञ्जीकारितः आसीत्। प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदानां समाघोषस्य मध्ये उपवेशे महाभियोग प्रस्ताव प्रस्तुतो वर्तते। प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अवरोधस्य मध्ये तत्पूर्वम् एमाले दलस्य सांसदेन डाक्टर भीमरावलेन समयम् अभियाच्य नेपाली भूमौ भारतीय पक्षेण डोजरयान सञ्चालन सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। उपवेशे सार्वजनिक लेखा समितेः सभापति भरत कुमार शाह समितेः एतद् विक्रम वर्षीयम् एकविंशम् वार्षिक प्रतिवेदनम् प्रास्तौत्। प्रतिनिधिसभायाः अपर उपवेशः परश्व चैत्रस्य द्वितीय दिवसे दिवा एकवादने वस्ता। सभामुखः अग्निप्रसाद सापकोटा प्रतिनिधि सभायाः उपवेशं प्रभावकारिणं विधातुं राष्ट्रस्य समस्यासु केन्द्री भवितुं च सांसदान् अनुरुणद्धि। प्रतिनिधि सभायाः गतदिवसीयोपवेशेऽपि प्रमुख विपक्षिणो नेकपा एमाले दलस्य सांसदैः समाघोषोच्चारणेन विहितं विरोधनम् अनु सभामुखः सापकोटा विशेषेण निर्दिशन् एवम् अन्वरुणत्। संसदः अवरोधस्य कारणेन विधि निर्माण प्रक्रिया प्रभाविता, जनतायाः राष्ट्रस्य च समस्याः आदृत्य विमर्शनात् प्रवञ्चितम् इति विषये सांसदैः आत्मनो वारं वारं ध्यानाकर्षणं चकारितमिति सभामुखः सापकोटा अस्मरत्। नेकपा एमाले दलेन माधव कुमार नेपाल साहित्येभ्य चतुर्दश सांसदेभ्य विहितेन दण्डनेन सह सम्बद्ध न्यायिक प्रकरणे आगामिनः चैत्र मासस्य विंशात् दिवसात् पूर्णश्रवणम् भविता। नेकपा एमाले दलस्य अध्यक्षेण पञ्जीकारिते आदेशाभियाचन निवेदने सर्वोच्च न्यायालयस्य न्यायाधीशद्वयस्य ईश्वर प्रसाद खतिवडाविदस्य कुमार चुडालस्य च संयुक्तेन न्यायपीठेन अन्तरिमादेशम् अस्वीकृत्य आगामिनः चैत्र मासस्य विंशात् दिवसात् पूर्णश्रवणाय प्रस्तुतिम् निर्धारयितुम् आदिष्टम् वर्तते। आदेशे लिखितोत्तरम् प्रस्तुतमिति हेतोः निवेदकेन उत्थापितानाम् वैधानिक प्रश्नानाम् निरूपणम् शीघ्रम् सम्पादयितुम् प्रस्तुतिम् निर्धारयितुम् च लिखितम् वर्तते। प्रधानमन्त्री शेरबहादुर देउवा वदति स्थानीय स्तरः लोकतन्त्रस्य प्रथम पाठशाला वर्तते। नेपाल नगरपालिका संघस्य 29 वार्षिकोत्सवस्य समारोहम् ह्यः सम्बोधयन् प्रधानमन्त्री देउवा अवोचत् स्थानीय स्तरः नागरिकाणाम् समीपस्य सर्वकारो स्थिति हेतोः जनतायाः मनोविजित्य कार्याणि कर्तव्यानि। स्थानीय स्तरः सर्वकारश्च प्रमुख विषयो नास्तीति चर्चयन् प्रधानमन्त्री देउवा दलीय सहमत्या स्तरान् अपाकृत्य सर्वकारः निर्मातुं शक्यते इति समस्पष्टयत। प्रधानमन्त्री देउवा अवदत् नगरपालिकाभिः जनताम् प्राथमिकतायाम् संस्थाप्य सेवा प्रदातव्या। राष्ट्रपतिना विद्यादेवी भण्डारिणा नूतन बौद्ध भिक्षु भिक्षुकाभ्य संगदानम् प्रदत्तमस्ति। शीतल निवासवर्तिनी राष्ट्रपति कार्यालय ह्य आयोजिते नेपाल वज्रयान महाविहार संघ प्रवज्या संवर कार्यक्रमे राष्ट्रपति भण्डारी बौद्ध भिक्षु भिक्षुकाभ्य संगदानम् प्रदत्तवती। तदवसरे राष्ट्रपति भण्डारी बौद्ध दर्शनस्य सांस्कृतिकाध्यात्मिक परम्परातः मौलिकताभिवृद्धौ सहयोग प्राप्यते इति विश्वासम् व्यक्तवती। भण्डारी सर्वेषां धर्माणां संरक्षणाय संवर्धनाय च बलं प्रददति। नेपाले बौद्ध परम्परायाः संरक्षणाय संवर्धनाय च आत्मनः आवश्यकीं भूमिकां निर्वोढुं तत्परता वर्तते इत्यगदत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की कथयति आवश्यकतायाः औचित्यस्य च आधारेण सत्ता गठबन्धनस्य दलेषु नैर्वाचनिक सहकार्यम् सम्भविष्यति। नेपाल प्रेस युनियन संघस्य बाँके शाखया ह्य नेपालगंजस्थाने आयोजिते पत्रकार सम्मेलने मन्त्री कार्की अवोचत् वर्तमान राजनीतिकावस्थाम् गभीरेण विश्लिष्य आवश्यकतायाः औचित्यस्य च आधारेण स्थानीय स्तराणाम् निर्वाचने गठबन्धनम् कर्तव्यम् नवेति विषये निर्णयः करिष्यते। मन्त्री कार्की अभासत एमसीसी संविधायः विषये प्रसारितो भ्रम शनै शनैः निवारितोऽस्ति। नेपाले विपन्नतायाः निवारणाय सबलार्थिक विकासाय च एमसीसी संविधया योगदानं प्रापयिष्यते। मन्त्री कार्की दलेन स्थानीय स्तरेषु विजय प्राप्ते सत्येव प्रदेश संघीय स्तरेषु निर्वाचनं जेतुम् आधारः निर्माष्यते इति भाषमाणः स्थानीय स्तर निर्वाचनं जेतव्यम् एवेति विश्वासेन नैर्वाचनिक कार्ये प्रवर्तयितुं कार्यकर्तृन् आह्वयत। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति नेकपा एमाले दलेन सह तत्कालं सहकार्यस्य सम्भावना नास्ति। प्रेस संगठन नेपालस्य प्रदेश समित्या ह्य मोरङ जनपदे आयोजिते पत्रकार सम्मेलने अध्यक्षो दाहाल स्वविचारं कार्यसूचीं दृष्टिकोणं च प्रस्तुत्य स्वस्य बलेन एव निर्वाचने विजयस्य प्राथमिकतया जनताया समक्षम् गन्तुम् शक्यते इति संस्पष्टयत। एमाले दलस्य नेतृत्वेन सह संसद गतिरोधस्य अन्ताय बारम्बारम् वार्तायाम् विहितायाम् सत्यमपि सहमते न धृतेति चर्चयन् अध्यक्षो दाहाल अवदत् अवरोधनस्य मध्येऽपि आवश्यक विधेयकम् पारितीकृत्य निर्धारित समय एव निर्वाचनस्य सम्पादनाय सत्तारूढ गठबन्धनस्य मध्ये सहमतिर्धृता वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भासते राष्ट्रे आर्थिक समृद्धये निर्यात मूलकोत्पादन प्रवर्धने च ध्यानम् प्रदेयम्। उद्योग वाणिज्यापूर्ति विभागेन अर्थतन्त्रस्य वर्तमानावस्थायाः विषये ह्य आयोजितायाम् अन्तरक्रियायाम् अध्यक्ष ओली आत्मनिर्भरार्थतन्त्रस्य आधारस्य रूपेण कृष्युत्पादनं प्रवर्ध्य अग्रे प्रवर्धने बलं प्रादात्। अध्यक्ष ओली अब्रवीत् आर्थिक समृद्धये भौतिक पूर्वाधारे अन्तराबद्धतायां मानव संसाधन विकासे वैद्युताङ्कनयुत नेपाले ऊर्जसी कृष्या आधुनिकीकरणे व्यावसायिकीकरणे च ध्यानं प्रदातव्यम् इति समाचारः।